इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। आदौ मुख्य वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मुः विकसित राष्ट्रं निर्मातुं राष्ट्र प्रथमम् इत्येतस्य दृष्टिकोणस्य स्वीकरणस्य आवश्यकतायाः उपरि अवधानं दत्तवती। प्रधानमन्त्री नरेन्द्रमोदी नाइजीरिया ब्राजील गयाना देशानां यात्रावधौ एकत्रिंशत् विश्वनेतृभिः संघटनप्रमुखैः च साह अनेकानि द्विपक्षीयोपवेशनानि विहितवान्। झारखण्ड महाराष्ट्र राज्ययोः विधानसभा निर्वाचनैः सह विभिन्न राज्यानां अष्टचत्वारिंशत् विधानसभासनानां द्वयोः संसदीय क्षेत्रयोः च उपनिर्वाचनस्य श्वः भविष्यमाणायाः मतगणनायाः सर्वाः सज्जताः सम्पूरिताः। गृहमन्त्रिणा अमितशाहेन निगदितं यत् अपराधस्य विरुद्धं प्रशासनस्य शून्य सहिष्णुतायाः नीतिः अस्ति, तथा च दिल्ल्याः विधिव्यवस्थायाः स्थितौ कस्यापि प्रकारकस्य शैथिल्यं न स्वीक्रियते इति। अपि च क्रिकेट प्रतिस्पर्धायां ऑस्ट्रेलिया दलेन पर्थस्थले बॉर्डर गावस्कर ट्रॉफी प्रतियोगितायां प्रथमायां निकषस्पर्धायां भारतं विरुध्य प्रथमे पर्याये सप्त क्रीडकानां हानिः पुरस्सरं सप्तषष्टिः धावनांकाः निर्मिताः। सम्प्रति वार्ताः विस्तरेण। अद्य राष्ट्रपतिः द्रौपदी मुर्मुः विकसित राष्ट्रं निर्मातुं राष्ट्र प्रथमम् इत्येतस्य दृष्टिकोणस्य स्वीकरणस्य आवश्यकतायाः उपरि अवधानं दत्तवती। हैदराबादनगरे लोकमन्थनस्य चतुर्थं संस्करणं सम्बोधयन्ती राष्ट्रपतिः सबलं प्रतिपादितवती यत् सर्वैः नागरिकैः देशस्य सांस्कृतिकं बौद्धिकं च परम्पराम् अवगन्तुम् अस्माकम् अमूल्य परम्पराणां सुदृढीकरणं च करणीयम् इति।
19वीं सदी के कानूनी को जगह भारतीय नागरिक सुरक्षा संहिता, भारतीय न्याय संहिता और भारतीय साक्ष्य अधिनियम लागू किए गए हैं। दिल्ली में राजपथ का नाम बदलकर कर्तव्य पथ रखा गया है। राष्ट्रपति भवन में दरबार हॉल का नाम बदलकर गणतंत्र मंडप रखा गया है। ये नामकरण हमारे देश में लोकतंत्र की प्राचीन परम्परा के अनुरूप है।
वैविध्यं देशस्य मूलभूत एकतायै सौन्दर्यस्य इन्द्रधनुः प्रददाति इति कथयित्वा राष्ट्रपतिः अवदत् यत् राष्ट्रिय एकतायाः अनुभूतेः कारणात् अनेकप्रतिसन्धिषु अपि देशः एकत्रितः अस्ति। राष्ट्रपतिः द्रौपदी मुर्मुः स्मारितवती यत् भारतीय समाजस्य विभाजनं दुर्बलं च कर्तुं शताब्द्याः प्रयत्नः जातः। अनया निगदितं यत् कृत्रिमभेदः प्राकृतिक ऐक्यं विच्छिन्नं कर्तुं न शक्नोति, तथा च भारतीयायाः चेतनया प्रेरिताः नागरिकाः राष्ट्रिय एकतायाः दीपं स्थापयन्ति इति।
हम चाहे बनवासी हो, ग्रामवासी हो या नगरवासी हो, सबसे पहले हम सभी भारतवासी हैं। इस राष्ट्रीय एकता की भावना ने हमें सभी चुनौतियों के बावजूद एक सूत्र में जोड़ कर रखा है। हमारे समाज को हर तरह से बांटने के और कमजोर करने का प्रयास सदियों से किए गए, लेकिन भारतीयता की भावना से अतप्रत देशवासियों ने राष्ट्रीय एकता की मशाल जलाए रखे हैं।
अवधेयास्पदं वर्तते यत् हैदराबाद नगरस्य द्विदिवसीय यात्रायाः अनन्तरं राष्ट्रपतिः नवदिल्लीं प्रति प्रस्थितवती। प्रधानमन्त्री नरेन्द्रमोदी पञ्चदिवसानां नाइजीरिया ब्राजील गयाना देशानां यात्रावधौ अनेकैः विश्वनेतृभिः साकम् अनेकानि उपवेशनानि विहितवान्। अत्रावधौ प्रधानमन्त्री एकत्रिंशत् द्विपक्षीयोपवेशनेषु भागम् अभजत्, अपि च वैश्विक नेतृभिः सह अनौपचारिकं वार्ताम् अपि कृतवान्। श्रीमोदी नाइजीरिया देशे एकं, ब्राजील देशे दश, गयानायां च नव द्विपक्षीयोपवेशनानि समनुष्ठितवान्। प्रधानमन्त्री इण्डोनेशियायाः राष्ट्रपतिना प्रबोबो सुबियांटो इत्यनेन, पुर्तगालस्य प्रधानमन्त्रिणा लुइस मोन्टेनेग्रो इत्यमुना, ब्रिटेन देशीयेन प्रधानमन्त्रिणा कीर स्टार्मर इत्यनेन, चिली देशीयेन राष्ट्रपतिना गैब्रियल बोरिक इत्यमुना, अर्जेन्टीना देशस्य राष्ट्रपतिना जेवियर माइली इत्येतेन च सह अनेकानि उपवेशनानि कृतवान्। एतदतिरिच्य असौ सिंगापुर, दक्षिण कोरिया, मिस्र, अमेरिका, स्पेन देशानां विभिन्नानां अन्ताराष्ट्रिय संघटनानां प्रमुखैः अधिकारिभिः च सह मन्त्रणाम् उपवेशनानि च विहितवान्। झारखण्ड महाराष्ट्र राज्ययोः विधानसभा निर्वाचनैः सह विभिन्न राज्यानां 48 विधानसभासनानां केरलस्य वायनाड संसदीय क्षेत्रस्य महाराष्ट्रस्य नान्देड संसदीय क्षेत्रस्य च उपनिर्वाचनस्य श्वः भविष्यमाणायाः मतगणनायाः सर्वाः सज्जताः सम्पूरिताः। मतगणना प्रातः 8 आरप्स्यते। सर्वप्रथमं प्रैष्य मतपत्राणां गणना भविष्यति। मतगणना प्रक्रियायाः सुचारु संचालनाय निर्वाचनायोगेन व्यापक व्यवस्था कृतास्ति। विभिन्न राज्यानां 31 विधानसभासनेषु केरलस्य वायनाड संसदीय क्षेत्रे च उपनिर्वाचनं नवम्बर मासस्य 13 अभवत्। महाराष्ट्रस्य 15 विधानसभासनेषु नान्देड संसदीय क्षेत्रे च अस्य मासस्य 20 मतदानं सुसम्पन्नम्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। गृहमन्त्रिणा अमितशाहेन निगदितं यत् अपराधस्य विरुद्धं प्रशासनस्य शून्य सहिष्णुतायाः नीतिः अस्ति, अपि च दिल्ल्याः विधिव्यवस्थायाः स्थितौ कस्यापि प्रकारकस्य शैथिल्यं न स्वीक्रियते। गृहमन्त्री अद्य दिल्ली आरक्षकैः सह मेलनं कृत्वा विधिव्यवस्थायाः स्थितिं समीक्षितवान्। केन्द्रीय गृहसचिवः गोविन्दमोहनः, गुप्तचर विभागस्य निर्देशकः तपन डेकाः, दिल्ल्यारक्षी आयुक्तः, अन्ये च वरिष्ठाः अधिकारिणः अस्यां सभायाम् उपस्थिताः आसन्। श्रीशाहः अवोचत् यत् दिल्लीवासिनः पूर्णतया सुरक्षाम् अनुभवन्ति इति प्रत्येकस्य आरक्षकस्य व्यक्तिगतं दायित्वम् अस्ति। सः इत्यपि अवदत् यत् बालकानां, महिलानां, वरिष्ठनागरिकाणां च सुरक्षां दिल्ली आरक्षिबलानां प्राथमिकता भवेत् इति। रक्षामन्त्री राजनाथसिंहः अद्य लावोसदेशस्य राजधान्यां वियन्तियाने नगरे जापानदेशस्य रक्षामन्त्रिणा जनरल निकातानी इत्येतेन च सह मेलनं कृतवान्। एकस्मिन् सामाजिक सन्देशपटले श्रीसिंहः अवोचत् यत् जनरल निकातानी इत्यमुना सह तस्य चर्चा समुचिता आसीत्। विश्वासं च प्रकटितवान् यत् उभयोः देशयोः मध्ये इयं सहभागिता स्वतन्त्र मुक्त नियमाधारितं हिन्द प्रशान्त क्षेत्रं सुनिश्चेतुं महत्वपूर्ण भूमिकां निर्वक्ष्यति। उभौपक्षौ देशयोः मध्ये रक्षा उद्योग प्रौद्योगिक सहयोगानां महत्वं पुनरावर्तितवन्तौ। श्रीसिंहेन फिलीपीन्स देशस्य रक्षासचिवेन गिल्बर्टो टेओडोरो इत्यमुना साकमपि सम्मेलनं कृतम्। असौ प्रोक्तवान् यत् भारतं फिलीपीन्स देशेन सह रक्षाकार्यं प्रबलीकर्तुं प्रतिबद्धम् अपि अस्ति। भाजपेति अध्यक्षः जेपी नड्डाः कांग्रेसं प्रति आक्षेपं कृतवान् यत् दलेन मणिपुरस्य संवेदनात्मक स्थितिः यथावदेव न संस्थापिता। श्रीनड्डाः मणिपुरस्य हिंसा सम्बद्धे कांग्रेसाध्यक्षेण मल्लिकार्जुन खर्गे इत्यनेन लिखितस्य पत्रस्य प्रत्युत्तरं राष्ट्रपति पदासीनायै द्रौपदी मुर्मू वर्यायै प्रदत्तवान्। असौ स्वपत्रे लिखितवान् यत् विगत 10 प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे पूर्वोत्तर क्षेत्रेषु सम्यक् परिवर्तनं सञ्जातम्। श्रीनड्डा इत्यस्य पत्रस्य प्रत्युत्तरे कांग्रेसनेता जयराम रमेशः कथितवान् यत् मणिपुरस्य जनाः शीघ्रातिशीघ्रं सामान्यस्थितेः, शान्तेः, सद्भावस्य च कामनां कुर्वन्ति इति। प्रधानमन्त्री नरेन्द्रमोदी आगामि रविवासरे 11 स्वीये मन की बात इत्यस्मिन् कार्यक्रमे देशवासिभिः साकं विचारविनिमयं करिष्यति। मन की बात इति मासिक कार्यक्रमस्य इदं 116th संस्करणं भविष्यति। अस्य कार्यक्रमस्य प्रसारणं आकाशवाणी दूरदर्शनयोः सर्वाभिः वाहिनीभिः प्रसारयिष्यते। अयं कार्यक्रमः आकाशवाणी दूरदर्शन सूचना प्रसारण मन्त्रालय इत्येतेषां यूट्यूब वाहिनीषु अपि द्रष्टुं शक्यते। क्रिकेट प्रतिस्पर्धायां ऑस्ट्रेलिया दलेन प्रर्थस्थले बॉर्डर गावस्कर ट्रॉफी प्रतियोगितायां प्रथमायां निकष स्पर्धायां भारतं विरुध्य प्रथमे पर्याये 7 हानिः पुरस्सरं 67 धावनांकाः निर्मिताः। इति वार्ताः।